इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। अन्तरिक्षयात्री ग्रुप कैप्टनाख्यः शुभांशु शुक्लः ऑक्सियम फोर इत्यभियानस्य च अन्ये त्रयः कर्मचारिणः ह्यः अपराह्णे अन्ताराष्ट्रिय अन्तरिक्षस्थानात् स्वकीयम् अन्तरिक्षयानम् ऑन डॉकिंग इति कृत्वा भूमिं प्रति प्रत्यागमन यात्राम् आरब्धवन्तः। अद्य भारतीय समयानुगुणं सायं 3 वादने कैलिफोर्निया तटं निकषा भूमिं प्रत्यागमिष्यन्ति च। स्पेस एक्स इत्यनेन सामाजिक प्रसार माध्यमे दृढ़ीकृतं यत् तस्य ड्रैगन इति क्रू कैप्सूल ग्रुप कैप्टन शुक्लं चालकदलेन सह वहत् ISS इत्यतः सफलतया निष्कासयिष्यति इति। 75 शताधिकेति याने स्वस्य यात्रान्तस्योपदेशे भारतस्य प्रथमान्तरिक्षयात्रिकस्य राकेश शर्मणः ऐतिहासिक वाक्यानां पुनरावर्तनं कुर्वन् ग्रुप कैप्टन शुक्लः अवदत् यत् भारतम् अद्यापि ऊर्ध्वतः सारे जहां से अच्छा एव दृश्यते इति।
हमारी ह्यूमन स्पेस मिशन की जो यात्रा है वो बहुत लंबी है और बहुत कठिन भी है, लेकिन मैं आपको विश्वास दिलाता हूँ कि अगर हम निश्चय कर लें इवन स्टार्स आर अटेनेबल, आज का भारत स्पेस से महत्वाकांक्षी दिखता है, आज का भारत निडर दिखता है, आज का भारत कॉन्फिडेंट दिखता है। और इन्हीं सब कारणों की वजह से मैं एक बार फिर से कह सकता हूँ कि आज का भारत अभी भी सारे जहां से अच्छा दिखता है।
अवरोहणानन्तरं ग्रुप कैप्टन शुभांशु शुक्लः अन्यैः चालकदलस्य सदस्यैः सह भूमेः गुरुत्वाकर्षणेन पुनः अनुकूलतां प्राप्तुं फ्लैट सर्जन्स इत्यस्य पर्यवेक्षणे 7 दिनानां पुनर्वसन कार्यक्रमे भागं गृहीष्यति। चीनयात्रायां गतः विदेशकार्यमन्त्री डॉ एस जयशंकरः सीमापार नद्योः विषये सहकारस्य आवश्यकताम् अधोरेखितवान्। मन्त्री विजिंग नगरे चीनदेशस्य समकक्षेण वांग ई इत्यनेन सह द्विपाक्षिकं मेलनं कृतवान्। सः प्रतिबंधक व्यापारोपायान् अपि स्वीकृत्य आर्थिक सहयोगस्य मार्गावरोधान् च स्वीकृतवान्। राष्ट्रपतिपदासीना द्रौपदी मुर्मू अद्य ओडिशा राज्यस्य कटक नगरे रेवेन्शा विश्वविद्यालयस्य 13वें वार्षिक दीक्षांत कार्यक्रमे भागं संगृह्य रेवेन्शा बालिका उच्च विद्यालयस्य 3 भवनानां पुनर्विकासस्य शिलान्यासं करिष्यति। आदिकवि सरलादास इत्यस्याः जन्मवार्षिक उत्सवे अपि भागं गृहीत्वा कटक नगरे च गतवर्षस्य कलिंग रत्न पुरस्कारं प्रदास्यति। ओडिशा राज्ये बालासोरनगरस्य फकीर मोहन स्वायत्त महाविद्यालयस्य छात्रा या एकस्मिन् संकाय सदस्योपरि यौन उत्पीडनस्य आरोपं कृत्वा आत्मदाहस्य प्रयासं कृतवती भुवनेश्वरस्य एम्स इति चिकित्सालये चिकित्सारता सा मृता। बालिका 95% दग्धा आसीत्। राष्ट्रपतिः द्रौपदी मुर्मू ह्यः सायंकाले एम्स भुवनेश्वर इत्यत्र बालिकायाः मातापितृभिः सह मिलित्वा घटनायाः विषये गभीरं चिन्तां प्रकटितवती आसीत्। टोरंटो नगरे रथयात्रेति शोभायात्रायाः समये उत्पन्नस्य व्यवधानस्य भारतं दृढतया निन्दाम् अकरोत्। एतत्कृत्य निन्दनीयम् इति च अमन्यत्। केनडादेशस्य अधिकारिभ्यः उत्तरदायिनां विरुद्धं कार्यं कर्तुम् आग्रहमपि अकरोत्। घटनायाः विषये वार्ताहराणां प्रश्नानां प्रत्युत्तरे विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् भारतेन केनडादेशस्य अधिकारिभिः सह दृढतया प्रकरणमिदं प्रस्थापितमस्तीति, येन अपराधिनः उत्तरदायिनश्च दण्डिताः भवेयुरिति। अद्य देशस्य वायव्यदिशि पूर्वदिशि मध्यभागे च अधिकतोऽधिकवर्षायाः पूर्वानुमानं ऋतुविज्ञान विभागेन कृतमस्ति। अन्ते क्रीडावार्तासु एका दुःखदा वार्ता। 14वर्षीयः सुप्रसिद्धः म्याराथान् इति धावकः सरदार फौजा सिंहः ह्यः जलन्धर जनपदे मार्गदुर्घटनायां मृतः। अन्ते क्रिकेट क्रीडायां गतरात्रौ लंडन नगरस्य लॉर्ड्स क्रीडांगणे अन्तिमदिने इंग्लैंड देशं विरुध्य एंडरसन तेंदुलकर ट्रॉफी क्रीडायाः तृतीयायां निकष स्पर्धायां भारतीय दलं पराजितम्। आतिथेयैः निर्धारितस्य 93.1 धावनांकानां लक्ष्यस्य अनुसरणं कुर्वत् भारतीय दलं 70.1 धावनांकेष्वेव पराभूतम् इति वार्ताः।